श्री परमात्मने नमः। अथ तृतीयोऽध्यायः। अर्जुन उवाच। ज्यायसि चेत् कर्मणस्ते मनः बुद्धिर्जनार्दन, तत्किं कर्मणि घोरे माम् नियोजयसि केशव। व्यामिश्रेणेव वाक्येन बुद्धिम् मोहयसीव मे, तदेकम् वद निश्चित्य येन श्रेयोऽहमाप्नुयाम्। श्रीभगवानुवाच। लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नघ, ज्ञानयोगेन साङ्ख्यानाम्, कर्मयोगेन योगिनाम्। न कर्मणाम् अनारम्भाम् निष्कर्म्यम् पुरुषो श्रुते, न च सन्न्यसनादेव सिद्धिम् समधिगच्छति। न हि कश्चित् क्षणमपि जातु तिष्ठत्य कर्मकृत्। कार्यते यमश कर्म सर्वप्रकृतिर्गुणैः, कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन्। इन्द्रियार्थान् विमूढात्मा कर्ता समुच्यते, यस्विन्द्रियाणि मनसा नियम्यारभते अर्जुन। कर्मेन्द्रिय हि कर्मयोगमसक्त स विशिष्यते। नियतम् कुरु कर्म त्वम् कर्म ध्यायो य कर्मणः, शरीरयात्रापि च ते न प्रसिद्धेद कर्मणः। यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयम् कर्म बन्धनः, तदर्थम् कर्म कौन्तेय मुक्तसङ्गः समाचर। सह यज्ञाः प्रजा सृष्ट्वा पुरोवाच प्रजापतिः, अनेन प्रसविष्यद्वामेषवोऽस्त्विष्ठकामधु। देवान् भावयतानेन ते देवा भावयन्तु वः, परस्परम् भावयन्तः श्रेयः परममाप्स्यत। इष्टान् भोगान्येव देवा दास्यन्ते यज्ञभाविता, तैर्दत्ता न प्रदायेभ्यो यो भुङ्क्तेस्तेन एव सः। यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्विषै, भुञ्जते ते त्वघम् पापा ये पचन्त्यात्मकारणात्। अन्नाद्भवन्ति भूतानि पर्जन्यादन्न सम्भवः, यज्ञाद्भवति पर्जन्यो यज्ञः कर्म समुद्भवः। कर्म ब्रह्मोद्भवम् विद्धि ब्रह्माक्षरसमुद्भवम्, तस्मात् सर्वगतम् ब्रह्म नित्यम् यज्ञे प्रतिष्ठितम्। एवम् प्रवर्तितम् चक्रम् नानुवर्तयति हय, अघायुरिन्द्रियारामो मोघम् पार्थ स जीवति। यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः, आत्मन्येव च सन्तुष्टस्तस्य कार्यम् न विद्यते। नैव तस्य कृतेनार्थो
कृतेनेह कश्चन,
न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रय। तस्मादसक्तः सततम् कार्यम् कर्म समाचर, असक्तो ह्याचरन् कर्म परमाप्नोति पुरुषः। कर्मणैव संसिद्धिमास्तिता जनकादयः, लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि। यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः, स यत्प्रमाणम् कुरुते लोकस्तदनुवर्तते। न मे पार्थासि कर्तव्यम् त्रिषु लोकेषु किञ्चन, नानवाप्तमवाप्तव्यम् वर्त एव च कर्मणि। यदि अहम् न वर्तेयम् कर्मण्यतन्त्रित, मम वर्तमानुवर्तन्ते मनुष्या पार्थ सर्वशः। उत्सीदेयूरिमे लोका न कुर्याम् कर्म चेदहम्, शङ्करस्य च कर्ता स्यामुपहन्यामि मा प्रजा। सक्तः कर्मण्य विद्वांसो यथा कुर्वन्ति भारत, कुर्याद्विद्वांस तथा सक्त शिखीर्षुर्लोकसङ्ग्रहम्। इदम् जनयेदज्ञानाम् कर्म सङ्गिनाम्, दोषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन्। प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः, अहङ्कार विमूढात्मा कर्ताहमिति मन्यते। तत्त्ववित्तु महाबाहो गुणकर्म विभागयोः, गुणागुणेषु वर्तन्त इति मत्वा न सज्जते। प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु, तान् कृत्स्नविदो मन्दान् कृत्स्नविन्न विचालयेत्। मयि सर्वाणि कर्माणि सन्न्यस्याध्यात्मचेतसा,
निराशिर्निर्ममो भूत्वा
युध्यस्व विगतध्वर। ये मे मतमिदम् नित्यमनुतिष्ठन्ति मानवाः, श्रद्धावन्तो न सूयन्तो मुच्यन्ते तेऽपि कर्मभिः। ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम्, सर्वज्ञानविमूढास्तान् विद्धि नष्टान चेतस। सदिशम् तिष्ठते स्वस्याः प्रकृतेर्ज्ञानवानपि, प्रकृतिम् यान्ति भूतानि निग्रह किम् करिष्यति। इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ, तयोर्नवसमागच्छेत्तौ ह्यस्य परिपन्थिनौ। श्रेयान् स्वधर्मो विगुणः, परधर्मात् स्वनुष्ठितात्, स्वधर्मे निधनम् श्रेयः परधर्मो भयावह।
अर्जुन उवाच
अथ केन प्रयुक्तोऽयम् पापम् चरति पुरुषः अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः। श्रीभगवानुवाच काम एष क्रोध एष रजोगुणसमुद्भवः महाशनो महापाप्मा विध्येनमिह वैरिणम् धूमेनावृते वह्निर्यथा दर्शो मलेन च यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् आवृतम् ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण कौन्तेय दुष्पूरेणानलेन च इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते। एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ पाप्मानम् प्रजहीयेनम् ज्ञानविज्ञाननाशनम्। इन्द्रियाणि पराण्याहुरिन्द्रियेभ्य परम्
मनसस्तु परा बुद्धिर्यो
बुद्धे परतस्तु स एवम् बुद्धे परम् बुद्ध्वा संस्तभ्यात्मानमात्मन। जय शत्रुम् महाबाहो कामरूपम् दुरासदम्
कामरूपम् दुरासदम्।
ओम् तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायाम् योगशास्त्रे श्रीकृष्णार्जुनसंवादे
कर्मयोगो
नाम तृतीयोऽध्यायः।